यरने काचे संयोगपूर्वस्य इति अनेन सूत्रेणापि यन् एव विधीयते. अत्र पदत्रयम् अस्ति, येः अनेकातः संयोगपूर्वस्य इति. येः इत्युक्ते इवर्णस्य, हरेः इति यथा भवति येः इवर्णस्य, तर्हि इवर्णस्य यन् भवति. अत्र अङ्गस्य इति अङ्गाधिकारः अस्ति, अङ्गस्य इति अधिकारः अस्ति. इनो यन् इत्यतः यन् इति स्वीक्रियते, यन् भवति. अतिष्णु धातु ब्रुवां इति सूत्रात् धातु इति अनुवृत्तिः अस्ति. एवं धातु अङ्गस्य यन् येः अनेकाशः असंयोगपूर्वस्य, एते शब्दाः सन्ति. इदानीं धातोः धातु इति शब्दस्य विभक्तिविपरिणामः भवति. धातोः इति स्वीक्रियते, धातोः इति पदस्य द्विरावृत्तिः क्रियते. धातोः इति पदस्य द्विरावृत्तिः क्रियते इत्युक्ते एकपदस्यैव द्विवारम् उपयोगः क्रियते. तदा किं भवति, प्रथमधातुशब्दस्य ये येः इत्यस्य विशेषणं भवति. अत्र येः इति विशेषणं भवति चेत् येन तदन्तविधिना किं क्रियते, तदन्तो तत्र तदन्तविधिना तदन्तो यो धातुः इति अर्थः लभ्यते. येः इवर्णः इत्युक्ते येः नाम इवर्णस्य, तदन्तो यो धातुः इति प्रथम धातु शब्दात् स्वीक्रियते. प्रथमवार अस्माभिः धातुशब्दात् स्वीकृतः किल धातोः इति. तदन्तो यो धातुः इति अर्थः लभ्यते. द्वितीयधातुशब्दस्य संयोग इति अस्ति किल, असंयोगपूर्वस्य इति. तत्र असंयोगपूर्वस्य इत्यनेन अन्वयः भवति. एवं धातुशब्दस्य द्विरावृत्या द्विवारं धातुशब्दः सूत्रार्थे प्रयोगः, धातुशब्दस्य द्विवारं प्रयोगः अस्ति, अतः द्विवारं सूत्रार्थे प्रयोगः अस्ति. एवम् इवर्णान्तस्य धातोः अङ्गस्य इति अङ्गस्य इति अधिकारः अस्ति, इवर्णान्तस्य अङ्गस्य इति अधिकारः इवर्णान्तस्य धातोः इत्यस्य इवर्णान्तस्य धातोः इति शब्दौ अङ्गस्य इति विशेषणं भवति. अत्रापि तदन्त अङ्गस्य इवर्णान्त इत्युक्ते तदन्तविधिना इवर्णान्तधात्वन्तस्य इति आगच्छति. इवर्णान्तधात्वन्तस्य अङ्गस्य इति अर्थः भवति. अनेकातः इत्यत्र अनेकातः इति पदमपि अङ्गस्य इति शब्दस्य विशेषणं भवति. तदा किं भवति, अनेकाचः, अनेके अचः यस्य यस्मिन्, अनेके अचः यस्य यस्मिन् वा सः अनेकाच, तस्य अनेकाचः इति भवति. असंयोगपूर्वस्य येः इत्यस्य सामानाधिकरणम् इत्युक्ते विभक्तिसमानम् अस्ति, अतः असंयोगपूर्वस्य इत्यस्य अर्थः कः नास्ति संयोगः पूर्वो यस्य संयोगः नाम संयुक्ताक्षरं नास्ति संयोगः हलोनन्तरात् संयोगः नास्ति संयोगः पूर्वो यस्य सः असंयोगपूर्वः इदानीम् एवम् अर्थः कथम् आगच्छति इत्युक्ते इदानीम् धात्वयवसंयोग असंयोगपूर्वः न भवति यः विवर्णः इत्युक्ते यदि अजादिप्रत्ययः यदि अजादिप्रत्ययः अस्ति अङ्गम् अनेकात् भवेत् यन् आदेशः भवति परन्तु कदा भवति इवर्णान्तधातुः भवेत् तदुपरि एकः नियमः अस्ति सः इवर्णान्तधातुः तस्मात् इवर्णान्तधातोः पूर्वं संयोगः न भवेत् धातु अवयवसंयोगः न भवेत् धातु वा तस्य अवयवः वा तस्य संयोगः न भवेत् संयोगः नाम हलोनन्तरात् संयोगः संयुक्ताक्षरं न भवेत् तादृशधातुः भवेत् तादृशधातुः यदि अस्ति चेत् किं भवति यन् भवति पुनः वदामि एतत् सूत्रं यण् विधायकसूत्रम् यण् कदा विधीयते अजादिप्रत्यये परे विधीयते अङ्गस्य स्वरूपं किम् अङ्गाधिकारे अस्ति अङ्गस्य स्वरूपं किम् अङ्गस्य स्वरूपम् इवर्णान्तधातुः भवेत् अनेकात् भवेत् तस्मात् पूर्वं कोऽपि संयोगः न भवेत् एवमेव एतदेव अस्य सूत्रस्य अर्थः तदेव उच्यते धात्वयवसंयोगपूर्वो न भवति य इवर्णः तदन्तो यो धातुः तदन्तस्य अनेकातः अङ्गस्य यञ् स्यात् अजादौ प्रत्यये परे इति सूत्रार्थः वर्णितः क्लेशः अस्ति वा इवर्णान्तधातुः अनेकात् अनेकात् भवेत् अजादिप्रत्यये असंयोगपूर्वः अजादिप्रत्यये परे भवेत् असंयोगपूर्वः भवेत् चत्वारः नियमाः धातुमध्ये धातुमध्ये इवर्णः अस्ति इदानीं धी इत्यस्य इवर्णः अस्ति धातुमध्ये इवर्णः अस्ति तस्मात् पूर्वम् इकारात् पूर्वं संयोगः न भवेत् इकारात् पूर्वं यः धात्ववयवः अस्ति इदानीम् इवर्णान्तधातुः इत्युक्ते समग्रधातोः अवयवत्वं प्रत्येकवर्णस्य भवति इवर्णात् पूर्वं यः धात्ववयवः भवति सः असंयोगः न भवेत् संयोगः न भवेत् असंयोगः प्रभि एव इदानीं प्रभीति अस्ति परन्तु समीचीन प्रश्नः महादेव महोदयस्य परन्तु प्र इति धात्वव्ययः नास्ति प्र इति उपसर्गः अस्ति मयापि तदेव चिन्तितं किं भो यत्ति प्र इति उपसर्गः अस्ति न तु धात्ववयवः सुजाता भगिनी अपि सम्यक् उक्तवती मध्ये अकारः धकारः अस्ति व्यवधानमपि अस्ति इकारात् पूर्वं व्यवधानमपि अस्ति तदपि वक्तुं शक्यते परन्तु अत्र अन्यत् बलं कारणम् इत्युक्ते प्र इति धात्ववयव असंयोगपूर्वः नास्ति धात्व प्र इति धात्ववयवः नास्ति उपसर्गः अस्ति अत्र अनेकाचिति कस्य विशेषणम् इति द्रष्टुं तदेव अहम् उक्तवान् किञ्चित् प्रयत्नं कृतवान् वक्तुम् अनेकाचिति अङ्गस्य विशेषणम् एवम् अङ्गम् अनेकात् भवेत् धातुः अनेकात् भवेत् न अङ्गम् अनेकात् भवेत् अनेकात् इति अङ्गस्य विशेषणम् अङ्गम् अनेकात् भवेत् इवर्णान्तधातुः भवेत् इवर्णात् पूर्वं संयोगः न भवेत् संयोगः धात्ववयवे न भवेत् तादृश अनेकाचः अङ्गस्य इवर्णान्तस्य धात्वन्तस्य इवर्णान्तस्य यण् भवति कदा भवति अजादो प्रत्यये परे भवति इदानीम् अवगतं किल इदानीं सम्यक् अस्ति अस्तु एवं प्रधि औ इति इदानीं स्थितिः इदानीं प्रधि औ इत्यस्य यन् भवति चेत् इकारस्य किं भवति यकारः भवति प्रध्यौ इति यन् भवति इदानीम् अग्रिम विभक्तिः प्रधीः प्रध्यौ प्रत्यः प्रत्यः प्रधीः प्रद्यौ प्रत्यः इत्यस्य जस् अस्ति प्रधी अस्तु जस् तत् अत्र सर्वत्र एवमेव भवति इको एणचि इति प्रथमं यन् प्राप्ति तदनन्तरं प्रथमेव पूर्वसवर्णः इत्यनेन यणः बाधा भवति दीर्घाजसि च इति प्रथमेव पूर्वसवर्णः इत्यस्यापि निषेधः अनन्तरम् अतिष्ठु धातु ब्रुवां युवनौ इत्यस्य यन् प्राप्तिः तदनन्तरं यरणेकात् इत्यस्य यन् यणः प्राप्तिः एवम् आफ्टर् फोर् स्टेप्स् प्रथमं यन् इकोणचि इति यन् ततः परं प्रथमयो पूर्वसवर्णः इति यणः बाधः अनन्तरं दीर्घाद्यसि च इति प्रथमयो पूर्वसवर्णः इत्यस्य बाधः निषेधः तदनन्तरम् अतिष्णु धातुब्रुवाङ् इति इयं प्राप्तिः तदनन्तरं यरनेकात् इत्यस्य यन् इयङ् इत्यस्य इयङ् बाधित्वा यन् भवति एवं प्रधीः प्रद्यौ प्रद्यः इति भवति प्रधीं प्रद्यौ प्रधीमित्यस्यापि किं भवति प्रधीमित्यस्यापि इको एनचि इति यण् ततः अमिपूर्वः इति पूर्वरूपस्य किं भवति प्रधि अम् पूर्वरूपम् एकादेशः तत् पूर्वरूपस्य सूत्रम् अमीपूर्वः इति सूत्रम् तस्य सूत्रसङ्ख्या किम् अस्ति? अत्र अङ्गाधिकारे क्लेशः अस्ति. सर्वाणि सूत्राणि अङ्गाधिकारे वर्तन्ते चेत् तत्र परसूत्रम् एतत् सर्वं द्रष्टव्यम्. अमिपूर्वः इति सूत्रसङ्ख्या किम् अस्ति? 6107 अस्ति. परन्तु अतिष्ठु धातुभ्रुवाङ्गं तस्य 199 वा 77 वा यरने काचिति इत्यस्य 80. तर्हि यरने काचिति किं भवति? अमिपूर्वः इति आगच्छति. तत्र परत्वात् अतिष्ठु धातुभ्रुवम् इति तस्य दादः परत्वात् तस्य सूत्रस्य प्रवृत्तिः, पुनः अपवादत्वात् यजनेकाचित्यस्य प्रवृत्तिः. एवं प्रभि अम् प्रभ्यम् इति भवति. परन्तु सूत्रं यरनेकाच् इति सूत्रेणैव यण्. अवगतं वा? द्वितीयावक्ति एकवचने प्रभ्यम्, अनन्तरं प्रभ्यं प्रभ्यौ प्रधीन इति भवति. पुल्लिङ्गशब्दः इत्युक्ते प्रधीन इति भवेत्. परन्तु तस्मात् शशोनपुंसि इति सूत्रस्य प्रवृत्तिः कदा भवति? तस्मात् इत्यस्य अर्थः कः? कृतपूर्वसवर्ण इति अस्ति. इदानीं सवर्णदीर्घः एव अत्र निषेधः क्रियते. तर्हि पूर्वसवर्णः अस्माभिः न कृतः, कथं तस्य कृतपूर्वसवर्णदीर्घार्थनत्वं कथम्? एवं पूर्वसवर्णदीर्घस्य अभावात् अत्र नत्वं न भवति. किं भवति? प्रधीन् प्रद्यो प्रद्यः इत्येव भवति. यरनेकाचित्येव यण् इत्येव भवति. अनन्तरं प्रधि आ ता, तत्र आ इति अस्ति. पुनः यरनेकाचित्यनेन प्रद्या, एवमेव प्रदीभ्यां प्रदीभिः तत्तु ज्ञायते. प्रधि ञे इति अस्ति. तत्पश्यामः किम् अस्ति. ओ हे प्रधि, अहं त्यक्तवान् किल. हे प्रधि तत्र अम्बार्थनद्योर्ह्रस्वः इति भवति वा? नदीसंज्ञा नास्ति. तर्हि एतत् हे प्रधीः इत्येव भवति. अम्बार्थनद्यो रक्तः न भवति. हे प्रधीस् हे प्रधी हे प्रधीः इत्येव भवति. प्रद्यं प्रद्यो प्रद्यः प्रध्या अग्रिम प्रध्या प्रदीभ्यां प्रदीभिः. अस्तु, शब्दं प्रति गच्छामः. अत्र पश्यन्तु, प्रध्या प्रधी ता आ प्रध्या प्रदीभ्यां प्रदीभिः तत्तु ज्ञायते. ञे इत्यस्य इदानीं प्रध्ये भवति. कथम्? यण् यण् प्राप्तिः, यरनेकाचित् यण् प्राप्तिः. प्रध्ये प्रदीभ्यां प्रदीभ्यः पञ्चमीभक्ति ञस् इति भवति. पञ्चमीभक्ति ञस् मध्ये प्रधि अस्ति इति भवति. अत्रापि इयङ् भवति. प्रथमम् इयङ् बाधित्वा यण् भवति, प्रत्यः इति भवति. यरनेकाचो संयोगपूर्वस्य प्रत्यः प्रदीभ्यां प्रदीभ्यः प्रत्यः प्रध्योः ओस्त् किं भवति? तत्रापि प्रभ्योः यन्नेव. एवं प्रभि आम् इति भवति. अत्र नदीसंज्ञा नास्ति. ह्रस्वनद्यापोनुपित्यत्र नदीसंज्ञा नास्ति, ह्रस्वान्तत्वं नास्ति, आबन्तत्वं नास्ति. अतः नुट् नागच्छति, नुडागमः एव नास्ति. तर्हि किं भवति इत्युक्ते, प्रभ्यामिति यरेणे काचित्यनेन यण्येव भवति. एवं प्रधीनि इति भवति सवर्णदीर्घः. प्रधीनि इति ईकारः अस्ति, सवर्णदीर्घः अस्ति. सवर्णदीर्घं सवर्णदीर्घः सूत्रस्य संख्या किम् अस्ति, तत् षष्ठाध्याये प्रथमपादे अस्ति, अत्र चतुर्थपादे अस्ति, अतः सवर्णदीर्घं बाधित्वा इयं प्राप्तिः, पुनः इयं बाधित्वा यन् प्राप्तिः, यरणे काचित् यन् प्राप्तिः, प्रद्धि इति भवति, प्रद्धि प्रद्योः प्रधिषु इति एवं भवति। एतस्य सूत्रस्य प्रधि इति सूत्र इति शब्दस्य अर्थः कः, प्रध्यायति इति प्रदीः, प्र उपसर्गपूर्वक ध्यै चिन्तायामिति धातोः निष्पन्नः प्रधी शब्दः। इदानीम् अत्र सर्वत्र अजादिषु अजादिप्रत्ययेषु यत्र यत्र अजादिप्रत्ययः अस्ति यरणे काचित् यण्, यत्र यत्र हलादिप्रत्ययः अस्ति केवलं संयोगः, प्रदीभ्यां 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 के बहु सुलभमस्ति, एतत् सर्वं ज्ञात्वा बहु सुलभमस्ति। यरणे खात् इति सूत्रस्य अर्थः एव क्लेशः, अर्थे एव क्लेशः, परन्तु सर्वं सर्वत्र सर्वत्र अजादिप्रत्ययेषु यरणे खात् यण्येव सुलभमस्ति। इदानीम् अग्रिमसूत्रम् अग्रिम तत्र प्रधीति शब्दः अस्माभिः किम् उक्तं, प्र उपसर्गपूर्वक प्रकृष्टं ध्यायति इति प्रदीः इति उक्तम् अस्माभिः। इदानीं प्रकृष्टं ध्यायति इति उक्तम्, इदानीं यदि अस्माभिः धि शब्दस्यैव स्वीकारः क्रियते झै इत्येव, इदानीं झै शब्दस्य झि इति क्रियते, तदा झि इति नित्यस्त्रीलिङ्गशब्दः अस्ति, इदानीं झै शब्दस्यापि धि इति एवमेव भवति, जै शब्दः धि इति यदा परिवर्तनं भवति नित्यस्त्रीलिङ्गः अस्ति, नित्यस्त्रीलिङ्गशब्दः यदि अस्ति चेत् यूस्त्राख्यौ नदी इत्यनेन नदीसंज्ञा अस्ति, यदि नदीसंज्ञा अस्ति चेत् नदीसंज्ञप्रयुक्तानि कार्याणि ञन्तप्रयुक्तानि कार्याणि अपि भवन्ति अत्र अत्र तत्र, तर्हि ईकारान्त पुल्लिङ्गः कथम् इत्युक्ते प्रकृष्टाधीः यस्य सः इति विग्रहः, प्रकृष्टाधीः यस्य सः, यस्य उत्तमबुद्धिः अस्ति सः इति अन्यपदार्थप्रधानः बहुव्रीहिसमासः, प्रकृष्टाधीः यस्य सः इति बहुव्रीहिसमासः यदि क्रियते तर्हि धी शब्दस्य नित्यस्त्रीलिङ्गत्वात् यूस्त्राख्यौ नदी इत्यनेन नदीसंज्ञा, प्रथमलिङ्गग्रहणं च इति नियमेन प्रदधीति शब्दस्य प्रकृष्टाधीः इत्यर्थे, प्रकृष्टाधीः यस्य सः इत्यर्थे किं भवति, प्रधीशब्दस्य एकनिमिषं, प्रकृष्टाधी तत् स्त्रीलिङ्गशब्दः चेत् प्रध्या इति भवति, प्रध्या आकारं प्रध्या इति आकारम् आबान्त आबन्तत्वम् इदानीं प्रध्या इत्येव धीः प्रकृष्टाधीः यस्यार्थः प्रध्या इत्येव भवति, एकनिमिषम् प्रध्या इत्येव भवति, एक पुनः एकवारं कोशादिकं दृष्ट्वा वदामि, परन्तु ममापि डौट् इदानीं द्वितीयवारं पृष्टवान् इति डौट् आगतं, प्रध्या इत्येव इतिहासस्य तत् प्रध्या इत्येव भवति। हा इदानीम् ईकारान्तपुल्लिङ्गः प्रतिशब्दः नदीसंज्ञनिमित्तकानि कार्याणि ञन्तनिमित् ञन्तत्वं ञन्तत्वमस्ति अत्र, एवं किं भवति प्रदी प्रद्यो प्रत्यः तत्तु समानम् प्रज्ञम् हे प्रद् इदानीं हे प्रदीः इति न भवति किं भवति अम्बार्तनद्योर्हर्स्वः इति भवति तदा किं भवति अम्बार्तनद्योर्हृदः हे प्रदीस् ह्रस्व हे प्रदीस् सकारलोपः येन ह्रस्वात् सम्बुद्धे इति सकारलोपः तर्हि किं भवति हे प्रभि इति भवति हे प्रद्यौ हे प्रत्यः तत्तु समानं प्रज्ञं प्रत्यौ प्रत्यः समानं परन्तु प्रज्ञा प्रज्ञा इत्यत्र प्रज्ञा प्रदीप्यं तदपि समानमेव ञे इत्यस्य इदानीं ञे इत्यस्य आण्नद्याः आकश्च नदीसंज्ञकनिमित्तकानि वृद्धिः भवति न तु यण् यरने काचित् यन् न भवति यन् एकनिमिषम् आण्नद्याः आटश्च किम् आण्नद्याः आटश्च इत्यनेन वृद्धिः प्रभ्यै प्रदीभ्यां प्रदीभ्यः पञ्चमी इत्यत्र प्रज्ञाः कथं भवति प्रज्ञाः आन्नद्याः अतश्च पञ्चमीषष्टि सर्वे प्रज्ञाः प्रद्योः प्रदीनां तत्र नुट् अपि आगच्छति यरने काचित् यण् अपि आगच्छति परन्तु परत्वात् नुट् एव भवति हस्वप्रद्यापो नुट् इति परसूत्रमस्ति अतः परत्वात् नुट् एव भवति सप्तमी विभक्तौ प्रधि नी प्रज्ञां प्रज्ञोः प्रधीषु इति प्रज्ञाम् इति किं भवति सप्तमी भक्तौ नेरां नद्यां नीभ्यः नेरां नद्यां नीभ्यः किं करोति नेः आं भवति प्रज्ञाम् आण्नद्याः आतश्च यरने काचित् यण् प्रज्ञाम् अवगतं वा सेम् सूत्रात् ओन्ली आर् रिपीटिङ्ग् अतः मया तत्र टैप् न कृतं किं किम् इति अस्माभिः पुनः अत्र एकनिमिषं पुनरावर्तनं कर्तुं शक्यते प्रदीः प्रद्यौ प्रत्यः अत्र कोऽपि क्लेशः नास्ति प्रद्यौ इत्यत्र किम् अस्ति यरने काचित् यण्येव भवति प्रद्यः इत्यपि भवति हे प्रधि इत्यत्र नदीसंज्ञकनिमित्त नदीसंज्ञा अस्ति इदानीं नदीसंज्ञकनिमित्तानि कार्याणि के के इति तद अतः एव मया पुनरावर्तनं कृतं नदीसंज्ञकनिमित्तानि कार्याणि कानि तत्र अम्बार्तनद्योर्ह्रस्वः सम्बोधनप्रथमादत्तौ चतुर्थी आण्नद्याः आतश्च इति अस्ति ह्रस्वनद्यापो नुट्टिति न तत्रापि नेरां नद्यां नीभ्यः तत्र 4.1 6.3 पञ्चमीषष्टि विभक्तौ आण्नद्याः आतश्च इति वृद्धिः तदनन्तरं इद् प्रज्ञामित्यत्र ज्ञानां नद्यां नीभ्यः एतान्येव नदीसंज्ञकनिमित्तानि कार्याणि एतत् कुत्र भवति इति दृष्ट्वा तदेव परिवर्तनं करणीयम् अस्माभिः प्रज्ञै इदानीं यदि प्रधिशब्दस्य प्रकृष्टादिः यस्य सः इति नास्ति चेत् नदीसंज्ञा नास्ति चेत् प्रज्ञे इति भवति चतुर्थी वक्तौ अत्र प्रज्ञै इति भवति एवमेव सर्वत्र भवति. एकवारम् अभ्यासः क्रियते चेत् तत्र लिखित्वा अभ्यासः करणीयः. प्रक्रियायाः पुनः पुनः सूत्रलेखनं नोट्बुक् मध्ये लेखनं पुनः पुनः लेखनं क्रियते चेत् प्रक्रियायाः अभ्यासः भवति. नो चेत् न भवति अभ्यासः, न भवति विस्मरणं भवति, सूत्रार्थः विस्मर्यते, सूत्रं किं करोति इति न ज्ञायते. तत् अस्माभिः यदि एतादृशशब्द क्लिष्टशब्दानां प्रक्रिया अभ्यासः करणीयः एव. अग्रिमशब्दः एवं ग्रामणीः. ग्रामणीः इत्यत्र किं भवति? ग्रामं नयति इति ग्रामणीः इति अस्ति. तत्र नी धातुः अस्ति, नी धातुः अस्ति, ग्रामणीः नी धातुः अस्ति. अत्रापि सर्वत्र यरनेकाचित्येव यण् भवति, यतोहि नी धातुः अस्ति, इवर्णान्तधातुः अस्ति, अत्र संयोगः नास्ति इवर्णान्तधातोः पूर्वं. तदन्त अनेकात् अङ्गमपि अस्ति, अजादिप्रत्यये परे यण् भवति. ग्रामणी इति शब्दः अपि नित्यस्त्रीलिङ्गः नास्ति, अतः यूस्त्राक्षो नदी इति नदीसंज्ञा न भवति. एवम् आण्नद्याः आतश्च नुडागमः न भवति. सम्बुद्धौ अपि ह्रस्वः न भवति. सो अग्रिमकक्षायाम् एतदेव होम्वर्क् अस्ति. अग्रिमकक्षा इत्युक्ते श्वः, श्वः होम्वर्क् अस्ति. ग्रामणीशब्दस्य रूपाणि लिखित्वा आनेतव्यानि. उच्यते चेत् ग्रामणीः, ग्रामण्यौ, ग्रामण्यः इति प्रथमाविभक्तिरूपम्. तत्र प्रक्रिया अपि एकवारं वक्तव्यं. रूपं प्रक्रिया तत्र किं भवति? सप्तमीवस्तौ ईकारान्तः पुल्लिङ्गः उन्नीशब्दः इति मया लिखितम्. एकनिमिषं, तत्र अत्र क्लेशः अस्ति. सप्तमीवस्तौ किम् अस्ति इत्युक्ते एकादशः नौ. इदानीं नेरां नद्यां नीभ्यः इति अस्ति. ग्रामण्याम् इत्येव भवति. ग्रामणीशब्दे नेरां नद्यां नीभ्यः इति सप्तमीभक्तौ प्रवृत्तिः अस्ति. कथम् इत्युक्ते नीति साक्षात् निर्देशः अस्ति सूत्रे एव. नेरां, नेः, आं, नद्यां, नीभ्यः, नीति अस्ति तत्र. अवगतं वा? अतः ग्रामण्यामित्येव भवति, न तु ग्रामण्यी इति भवति. यदि नीति साक्षात् निर्देशः नास्ति तर्हि ग्रामण्यी इति सप्तविभक्ति एकवचनम्. इदानीं ग्रामण्यामिति भवति ग्रामणीशब्दस्य. किमर्थम् इत्युक्ते नेरां नद्यां नीभ्यः इत्यस्य पदच्छेदः यदि अस्माभिः क्रियते, नेः, आं, नद्यां, नीभ्यः, नी इति नी धातुः तत्र, एवं साक्षात् निर्देशादेव तत्र आं क्रियते, नेः आं क्रियते, ग्रामण्यामिति भवति. श्वः पुनः ईकारान्तपुल्लिङ्गशब्दाः तत्र क्लेशदायकाः एव. तत् एतत् सर्वं पपीः इति एकमस्ति, बहुश्रेयसि अस्ति, इदानीम् अतिलक्ष्मी, अतिलक्ष्मी वा किमपि आगतं. ततः परम् इदानीम् अद्य किम् आगतम्? अद्य प्रधि इति शब्दद्वयमागतम्. अनन्तरं ग्रामणी इति आगतम्. अनन्तरम् उन्नी इति अस्ति. अग्रिम तत्र शब्दौ द्वौ सुश्री, यवत्री इत्यादिशब्दाः सन्ति. इतोपि बहुशुद्धी एवं सर्वम् अस्ति. अन्ते तत्र ईकारान्तपुल्लिङ्गशब्दानाम् एकं समरीकुर्मः, तदा एव ज्ञायते. एतत् सर्वं टिप्स अण्ड् टीचर्स् मध्ये इदानीम् इन्फर्मेशन् ज्ञायते इत्युक्ते अद्य यत्किमपि उच्चारि अद्य ज्ञायते, परन्तु पञ्चदिनानन्तरं यदा सर्वं पाठ्यते तदा पृच्छ्यते चेत् तदा किञ्चित् भ्रमः भवितुं भ्रमः भवति। भ्रमनिवारणार्थम् अस्माभिः किञ्चित् विशेषयत्नः करणीयः। विशेषयत्नः नाम विषयविभागं कृत्वा कुत्र किं भवति इति एकं टेबल् टेबल् वा किमपि करणीयः, तत् क्रियते चेत् सर्वं सुलभं भवति। श्वः पुनः कक्षा अस्ति, श्वः 9:15 स्टार्ट् कुर्मः। 9:15 इत्युक्ते नववादने लागिन् कर्तु, प्रायः लागिन् भवामि। 9:05-9:15 मध्ये क्लास् प्रारभ्यते। अस्तु अस्तु, हा येनाक्षरकुमां नायमधिगम्य महेश्वरात् पुष्पं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारम्भरुचिं भाष्यतः नत्वा सरस्वतीं देवीं शुद्धां पुण्यां करोम्यहं पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीं। गुरुरेव गतिः गुरुमेव भजे, गुरुणैव शास्ति नमो गुरवे। न गुरोः परमं शिशुरस्ति गुरोर्मतिरस्ति गुरौ मोपाधि गुरो।